इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। अद्यारभ्य स्विट्जरलैंड देशस्य दावोस नगरे विश्वार्थिक मञ्चस्य पञ्चपञ्चाशत्तमं वार्षिकोपवेशनं समारभते। पञ्चदिवसात्मके एतस्मिन् कार्यक्रमे भारतस्य समावेशी विकासः आंकीय क्रान्तेः च प्रारूपम् उपस्थापयिष्यतः। भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं सूचना प्रसारण मन्त्री अश्विनी वैष्णवः, जलशक्ति मन्त्री सीआर पाटिलः, नागरिकोड्डयन मन्त्री के राममोहन नायडुः, खाद्य प्रसंस्करणोद्योग मन्त्री चिराग पासवानः, कौशल विकासोद्यमिता राज्यमन्त्री जयन्त चौधरी च करिष्यन्ति। अस्माकं वार्ताहरः सूचितवान् यत् भारतस्य प्रभावपूर्णा आर्थिक वृद्धिः वैश्विक ध्यानं सततम् आकर्षयति। सममेव प्रमुखेषु क्षेत्रेषु महत्वपूर्ण प्रगत्या सह वैश्विक मञ्चे भारतस्य सुदृढा स्थितिः समंकिता भवतीति। दिल्ली विधानसभा निर्वाचनाय नामांकन प्रत्यावर्तनाय अद्य अन्तिमं दिनं वर्तते। साम्प्रतं यावत् आहत्य 19,700 संख्यकाः प्रत्याशिनः नैर्वाचनिक समराङ्गणे विद्यन्ते। मुख्य निर्वाचनाधिकारिणा सूचितं यत् 22,500+ नामांकनपत्रेषु आहत्य 77,400 यावत् नामांकनपत्राणि निरस्तानि। अवधेयं वर्तते यत् दिल्ली विधानसभायै निर्वाचनम् आगामि मासस्य पञ्चमे दिनांके एकस्मिन्नेव सोपाने भविष्यति, तदनु मतगणना 8मे दिनांके सुनिश्चिता भविष्यति। डोनाल्ड जे ट्रम्प इत्येषः अद्य संयुक्तराज्यामेरिकायाः 47वें राष्ट्रपतिपदाय शपथवचनं स्वीकरिष्यति। अत्रावधौ तत्र तापमानं 6 डिग्री सेल्सियस परिमितात् न्यूनं भविष्यति, येन हि आगम्यमानाः जनाः कैपिटल रोटुंडा इत्यत्र उपस्थिताः भविष्यन्ति, यद्धि शपथग्रहण समारोहाय सुनिश्चितं जातम्। शपथग्रहण समारोहः एषः भारतीय समयानुसारि रात्रौ 6:30 भविष्यति। भारतीय ऋतुविज्ञान विभागेन आगामिषु 5 दिवसेषु पश्चिमीय विक्षोभ कारणेन जम्मू कश्मीर, हिमाचल प्रदेश, उत्तराखण्ड राज्येषु वृष्टिः हिमपातश्च अनुमानितः। ऋतुविज्ञान विभागीयः वैज्ञानिकः डॉ नरेश कुमारः अवादीत् यत् आगामिन्योः बुध गुरुवासरयोः पंजाब, हरियाणा, पश्चिमोत्तर प्रदेश, दिल्ली, राष्ट्रिय राजधानी क्षेत्र, राजस्थानेषु च वृष्टेः संभावना वर्तते। श्रममन्त्री डॉ मनसुख मांडवीयाः अद्य नवदिल्ल्याम् अनौपचारिक क्षेत्रस्य श्रमिकेभ्यः 2-दिवसात्मकीयायाः अन्ताराष्ट्रिय संगोष्ठ्याः उद्घाटनं करिष्यति। अस्याः संगोष्ठ्याः उद्देश्यम् अनौपचारिक श्रमिकेभ्यः सामाजिक सुरक्षा प्रदानम् अथ च हितधारकाणां क्षमतावर्धनमिति वर्तते। खोखो इति विश्वचषक प्रतिस्पर्धायां भारतीय पुरुष महिला वर्गयोः उभाभ्यां दलाभ्याम् ऐतिह्यं विरच्य एषा स्पर्धा स्वनाम्नी कृता। उभयोः वर्गयोः अन्तिमचक्रे नेपालदलं पराजितम्। भारतीय महिलादलेन प्रथमवारं खोखो इति विश्वचषकः विजितः। अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी भारतीय महिलादलाय वर्धापनानि अयच्छत्। उक्तवान् च यत् अयम् ऐतिहासिकः विजयः तस्य उत्कृष्टकौशलस्य, दृढसंकल्पस्य, सामूहिकप्रयासस्य च परिणामो विद्यते। आन्ध्रप्रदेशे केन्द्रीय गृहसहकारितामन्त्री अमितशाहः ह्यः विजयवाडायां एनडीआरएफ इति राष्ट्रियापत्मोचनबलस्य 20 स्थापनादिवस समारोहे भागम् अभजत्। अत्रावसरे गृहमन्त्रिणा कृष्णाविले इत्यस्य कोण्डापाउलूरुक्षेत्रे राष्ट्रियापत्प्रबन्धनसंस्थानस्य दक्षिणपरिसरस्य उद्घाटनं कृतम् इति वार्ताः।